एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। विजयादशमी पर्वणः अन्तर्गतम् अद्य महाष्टमी पर्व सोल्लासम् समायोज्यमानमस्ति। एतदवसरे शक्तिस्वरूपायाः भगवत्याः दर्शनपूजनार्थम् देवी मन्दिरेषु शक्तिपीठेषु च बाहुल्येन भक्तजनाः प्रातःकालादेव उपस्थिताः सन्ति। अद्य हिन्दवः स्वस्व पूजागृहेषु षोडशोपचारैः दुर्गाम् भगवतीम् पूजयन्ति। एतदवसरे प्रक्षालितानि बाणखड्ग कुन्ता त्रिशूल छुरिकादीनि शस्त्रास्त्राणि यन्त्राणि यन्त्रशालाश्च प्रपूज्यन्ते। अद्य महाकाली महालक्ष्मी महासरस्वतीनाम् विशेष पूजाराधने विधीयते। महाष्टम्याम् रात्रौ पूजागृहेषु शक्तिपीठेषु च बलिप्रदान पुरस्सरम् कालरात्र्याः योगिनीनाञ्च पूजनस्तवनादीनि विधीयन्ते। दुर्गा सप्तशते श्रीमद् देवी भागवत देवीस्तोत्राणि पठ्यन्ते च। अद्य काष्ठमण्डपोपत्यकायाः गुह्येश्वरी मैत्रीदेवी भद्रकाली दक्षिणकाली इन्द्रायणी रक्तकाली नरदेवी कालिकास्थान चामुण्डा बगलामुखी नक्साल भगवती वज्रयोगिनी वज्रबाराही शोभा भगवती विजयेश्वरी सुन्दरीमाई प्रवृत्तिषु शक्तिपीठेषु भगवत्याः दुर्गायाः पूजनस्तवन बलिप्रदानार्थम् आधिक्येन भक्तजनानाम् उपस्थितिः आदिवसम् दृश्यते। एवमेव उपत्यकायाः वै गोर्खायाः मनकामना पर्सा जनपदस्य गढ़वामाई सप्तरी जनपदस्य छिन्नमस्ता भगवती धनुषा जनपदस्य राजदेवी डडेलधुरा जनपदस्य उग्रतारा काभ्रेपलाञ्चोक जनपदस्य चण्डेश्वरी नाला भगवती पलाञ्चोक भगवती च सिन्धुपाल्चोक जनपदस्य पाल्चोक भगवती दोलखा जनपदस्य कालिन्चोक भगवती ताप्लेजुङ जनपदस्य पाथिभराचेति शक्तिपीठेषु अपि सबली पूजाराधनयोः कृते भक्तजनानां सम्मर्दः उपतिष्ठते। अद्य देव्याः शस्त्रास्त्रसहिता चतुरङ्गिनी सेना च आवाह्य प्रपूज्यते। मुगु जनपदस्य छायानाथ रारा नगरपालिकायाः सप्तमवडा क्षेत्रस्थिते पिनाटपने खोलास्थाने यो बसयानस्य दुर्घटनायां मृतानां जनानां संख्या द्वात्रिंशत् प्राप्ता वर्तते। नेपालगंजस्थानात् मुगु जनपदस्य मुख्यालयाय प्रस्थीयमानं बसयानं दुर्घटितं सद् चतुर्विंशतिः घटनास्थले चत्वारः उपचाराय नयनक्रमे मार्गेव चत्वारो जनाश्च उपचारस्य क्रमे नेपालगंजस्थाने च मृता इति कर्णाली प्रदेश प्रहरी कार्यालयस्य प्रहरी निरीक्षकः जीवनलामी छाने अज्ञापयत्। दुर्घटनायां आहतानां त्रयोदश जनानां मध्ये द्वादश जनानां हेलिकप्टर यानस्य माध्यमेन नेपालगंजस्थाने एकस्य जनस्य च मुगु जनपद चिकित्सालय एव उपचारः विद्यमानोस्तीति प्रहरी निरीक्षक लामिछाने अवोचत। मृतकानां मध्ये इदानीं नवानां जनानां सत्यापनं सम्भूतं वर्तते। अन्येषां मृतकानां सत्यापनम् अवशिष्टमस्तीति अस्माकं संवाददाता विनोद मल्लः ज्ञापयति। प्रधानमन्त्रिणा शेरबहादुर देउवाविधेन मुगु कास्की अछाम जनपदेषु दुरापन्नानां यान दुर्घटनानां समाचारैः आत्मना स्तब्धतानुभूतेति उक्तं वर्तते। यहाँ सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्रिणा देवाविदेन यान दुर्घटनानां समाचारेण आत्मना स्तब्धतानुभूतेति कथयता दुर्घटनायां मृतान् जनान् प्रति श्रद्धाञ्जलिम् अर्पयता च लोक शोक सन्तप्त परिवारजनेषु समवेदना प्रकटिता वर्तते। प्रधानमन्त्रिणा देवाविदेन दुर्घटनायां मृतानां जनानां परिवारजनेभ्य उचित सहयोगस्य आहतानाम् उद्धारस्य निःशुल्कम् उपचारस्य च व्यवस्था सर्वकारेण विधीयते इति च उक्तमस्ति। प्रधानमन्त्रिणा देवाविदेन मार्ग दुर्घटनायाः न्यूनीकरणाय सार्वजनिक नैज यातायात साधनानि नियमित रूपेण परीक्षितुम् सम्भारयितुम् क्षमतातः अधिकान् यात्रिणो न निर्वोढुम् सुरक्षायाः सर्वान् मापदण्डान् अवलम्बितुम् च ट्वीट सञ्जालस्य माध्यमेन सर्वे ध्यानाकर्षिताः वर्तन्ते। राष्ट्रपतिः विद्यादेवी भण्डारी ह पुष्पपत्रिका वर्धापनं व्यलोकयत। टुडीखेलस्थिते सैनिक मञ्चे नेपाली सेनया आयोजिते समारोहे असौ पुष्पपत्रिका वर्धापनमिदं व्यलोकयत। राष्ट्रपतिः भण्डारी नेपाली सेनाया परमाधिपतिः वर्तते। समारोहे नेपाली सेनया पुष्पवृष्टिं विदाय सैन्यकला ध्वननकला च मालश्री दुर्गास्तोत्रयो ध्वनिश्च प्रस्तुताः आसन्। कोविड उनविंशते संक्रमणस्य संकटस्य कारणेन विगत वर्षतः पुष्पपत्रिका वर्धापनम् धर्म संस्कृति परम्पराणाम् निरन्तरतायै स्वल्प संक्षिप्त कार्यक्रमस्य रूपेण समायोज्यमानम् वर्तते। समारोहे उपराष्ट्रपतिः नन्दबहादुर पुन प्रधानमन्त्री शेरबहादुर देउवा प्रधान न्यायाधीश चोलेन्द्र शमशेर राणा सभामुख अग्निप्रसाद सापकोटा राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमलसिन्हा च सहभागिनः आसन्। गोर्खा जनपदस्य कालिका मन्दिर स्थिते दशमी पूजागृहे सहर्षम सोल्लासम सवाद्यवादनम च पुष्पपत्रिका प्रवेशिता सन्ति। सती पिपलस्थितात् फूलपाती भञ्जाङ स्थानात् परम्परागत रूपेण दशमी पूजागृहे सम्पूज्य पुष्पपत्रिका प्रवेशयन्ते। महिला बालबालिका ज्येष्ठ नागरिक मन्त्री उमा रेग्मी कथयति प्रमुख प्रतिपक्षी दलेन विहितस्य संसदः सञ्चालनावरोधनस्य कारणेन अतिज्वलनशील पदार्थ घातक रासायनिक पदार्थ नियमनाध्यादेशः निष्क्रिया सम्भूतो वर्तते। ह्य चितवन जनपदे पत्रकारैः मन्त्री रेग्मी प्रमुख प्रतिपक्षिणा दलेन विहितस्य संसदा अवरोधनस्य कारणेन हिंसा मृद्मानितः अध्यादेशः निष्क्रियः सम्भूतः इति भाषमाणा सर्वकारेण अध्यादेशोऽसौ पुनः सक्रियो विधास्यते इति अज्ञापयत्। मन्त्री रेग्मी ज्येष्ठ नागरिकाणाम् अपाङ्गतायुतानां व्यक्तिनां च कृते सामाजिक सुरक्षा भरणाय कोषागारं यावत् प्राप्तुं सहजता न भवतीति हेतोः प्रतिगृहं सामाजिक सुरक्षा भरणस्य प्रापणत्वेन सर्वकारेण कार्यं विधीयते इति अज्ञापयत्। काष्ठमण्डपात् दोलखा जनपदस्य चरिकोट स्थानाय प्रस्थ्यमानं यात्रीवाहक बसयानं ह्यो लामो साँगु जिरी मार्ग खण्डस्य 7 किलो स्थाने दुर्घटितमस्ति। दुर्घटनायां बसयाने आरूढा न्यूनतोपि 33 जना आता सन्ति। एतेषु जनत्रयस्य अवस्था गभीरा अस्तीति प्रहरी ज्ञापयति। अधिक भारस्य कारणेन बसयानं उच्चभागे भारं कर्षितुम् असामर्थ्यात् पश्चगामी भूत्वा दुर्घटितम्। मार्गात् 10 मीटर मिताध पतितं चेति सिन्धुपाल्चोक जनपदस्य प्रहरी प्रमुख प्रहरी उपरीक्षक राजन अधिकारी अज्ञापयत्। गभीरेण आहता जना उपचाराय धूलिखेल मानिता सन्ति। अन्येषाम् आहतानां जनानां स्थानीय चिकित्सालये उपचारः विद्यमानोऽस्तीति प्रहरी ज्ञापयति। एवमेव गोर्खा जनपदे बोलेरो जीपयानं दुर्घटितं सद् 8 जनाः आताः सन्ति। तेषु द्वयोर्जनयोः अवस्था गभीरा वर्तते। एतज्जनपदस्य गण्डकी ग्रामपालिकायाः अष्टमडा क्षेत्रवर्तिनी बसेरी स्थाने दुरापन्नायां तस्यां दुर्घटनायां इमे जनाः आताः जाताः इति गोर्खा जनपद प्रहरी कार्यालयस्य प्रहरी उपरीक्षकः शेखर खनालः अज्ञापयत्।